पूर्वोक्तैवं गुणविशेषणविशिष्टायां सुगतिथौ ममोपात्तद्वैतक्षयद्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरप्रीत्यर्थं प्रातःसन्ध्याङ्गमुख्यकालातिक्रमणप्रायश्चित्तार्घ्यपूर्वकप्रातःसन्ध्यार्घ्यप्रदानानि करिष्ये। ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवस्सु वरुणः। ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणः विद्वान् सकलं भद्रमश्नुते। असावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद। असावादित्यो ब्रह्मा। सन्ध्यां तर्पयामि, गायत्रीं तर्पयामि, ब्राह्मीं तर्पयामि, निमृजीं तर्पयामि, त्रिराचामेत् द्विः परिमृज्या सकृतमस्पृश्य यत्सव्यं पाणिं पादौ प्रोक्षति शिरः चक्षुषि नासिके श्रोत्रे।